इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका ऋचा झा। आदौ मुख्यवार्ताः। भीषणातिभीषण चक्रवातः रेमल इति सामान्य चक्रवाते परिवर्तितः। पश्चिम बंगाल राज्ये अतिवृष्ट्या स्थिति प्रतिकूला वर्तते। गुजरात प्रशासनेन राजकोट स्थले टीआरपी गेम जोन इत्यत्र अग्निकाण्डे द्वौ आरक्षि बलाधिकारिणौ समेत्य सप्ताधिकारिणः निलम्बिताः। अस्यां दुर्घटनायां न्यूनातिन्यूनं 30 जनाः मृत्युमुपगताः इति आशंका वर्तते। लोकसभा निर्वाचनस्य सप्तमान्तिम चरणाय च प्रचाराभियानं तीव्रतया प्रचलति। दिल्ल्याः मुख्यमन्त्रिणा अरविन्द केजरीवालेन स्वास्थ्योनिरीक्षणाय स्वीय अल्पावधिक मुक्ति याचिकां सप्तदिनानि यावत् संवर्धयितुं सर्वोच्च न्यायालये याचिका प्रस्तुता। अपि च हॉकी क्रीडायां बेल्जियम देशस्य ऑन्टवर्प नगरे एफआईएच हॉकी प्रो लीग इत्यस्य यूरोपीय चरणस्य चतुर्थ क्रीडायां भारतम् अर्जेन्टीना देशं पञ्चचतुर्भिः अंकैः पराजयत्। अथ वार्ताः विस्तरेण। भीषण चक्रवातः रेमल इति शनैः शनैः पूर्वोत्तरीय भारतं प्रति प्रवर्धते। अयं चक्रवातः सामान्य चक्रवाते परिवर्तितः अपि च बांग्लादेशस्य मंगला इत्यत्र अद्य प्रातः केन्द्रितो वर्तते। कस्याश्चित् होरायाः पूर्वम् अस्य केन्द्रं कोलकाता नगरात् 90 किलोमीटर मिते दूरे स्थितमासीत्। सम्प्रति पूर्वदिशां एनं च प्रति अग्रे सरति। भारतर्तु विज्ञान विभागस्य महानिदेशकः डॉ मृत्युंजय महापात्रः अद्य मध्याह्ने नवदिल्ल्यां वार्ताहरान् संसूचयत् यत् पश्चिम बंगाल राज्ये प्रतिकूल ऋतुः सामान्यो भविष्यति। असौ निगदितवान् यत् अद्य केवलं अस्य राज्यस्य पूर्वी जनपदेषु अतिवृष्टिः सम्भाव्यते। तीव्रवायुप्रवाहात् जलतरंगाच्च उत्तरी ओडिशायाः तटे सागर स्थितिः प्रतिकूला जाता। विभागेन राज्यस्य बालासोर भद्रक केन्द्रपाड़ा जगतसिंहपुर जनपदानां केषुचित् भागेषु मध्यवृष्ट्या साकं तीव्रवायोः चक्रवातस्य च सम्भावना प्रकटिता। गुजरात प्रशासनेन राजकोट स्थले टीआरपी गेम जोन इत्यत्र अग्निकाण्डे द्वौ आरक्षि बलाधिकारिणौ समेत्य सप्ताधिकारिणः निलम्बिताः। अस्माकं वार्ताहरेण संसूचितं यत् शनिवासरे संजातायां अस्यां दुर्घटनायां न्यूनातिन्यूनं 30 जनाः मृत्युम् उपगताः इति आशंका वर्तते। घटनायाः निरीक्षणाय अतिरिक्तारक्षि महानिदेशकस्य सुभाष त्रिवेदिनः अध्यक्षतायां पञ्चसदस्यानां एकस्य विशिष्टदलस्य एसआईटी इत्येतस्य निर्माणं कृतम्। लोकसभा निर्वाचनस्य सप्तमान्तिम चरणाय च प्रचाराभियानं तीव्रतया प्रचलति। राजनीतिक दलानां शीर्ष नेतारः जनसभाः मार्ग प्रदर्शनं च कुर्वन्ति। अस्मिन् चरणे जून मासस्य प्रथमे दिनांके अष्टराज्यानां 57 आसनेभ्यः मतदानं भविष्यति। मतगणना जून मासे चतुर्थे दिवसे भविष्यति। बिहार राज्ये पटना साहिब संसदीय क्षेत्रस्य खुसरूपुर क्षेत्रे कांग्रेस नेता राहुल गांधी प्रोक्तवान् यत् एनडीए इति प्रशासनं द्विकोटि युवभ्यः वित्तीयावसरस्य प्रदानस्य वचनं न पूरितम्। असौ कथितवान् यत् प्रधानमन्त्री एतदर्थम् उत्तरं निज प्रतिवेदनपत्रे प्रददातु। श्रीगांधी पाटलिपुत्र आरा संसदीय क्षेत्रान्तर्गतं पालीगंज आरा जनपदयोः नैर्वाचनिक जनसभायाः कृते सज्जो वर्तते। लोकसभा निर्वाचनस्य सप्तमे चरणे जून मासस्य प्रथमे दिनांके एतेषु क्षेत्रेषु निर्वाचनं भविष्यति। राजनेता तेजस्वी प्रसाद यादव जहानाबाद लोकसभा क्षेत्रस्य घोसी क्षेत्रे आक्षिप्तवान् यत् भारतीय जनता पार्टी इति दलं संविधानस्यावसानं वांछति। भाजपेति दलस्य वरिष्ठ नेता मध्यप्रदेशस्य मुख्यमंत्री डॉ मोहन यादव पाटलिपुत्र संसदीय क्षेत्रात् भाजपा प्रत्याशिनः समर्थने घटनायाः मनेर स्थले जनसभाः कुरुते। ओडिशाराज्ये बीजेडी प्रमुखः मुख्यमंत्री नवीन पटनायकः केन्द्रपाड़ा लोकसभाक्षेत्रस्य बरुआ क्षेत्रे जनसमागमं सम्बोधितवान्। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। ओडिशा राज्ये विधानसभायाः द्विचत्वारिंशदासनेभ्यः भविष्यमाणाय मतदानाय प्रचाराभियानं चरमावस्थायां वर्तते। ओडिशा राज्यस्य मुख्यमंत्री बीजू जनता दलस्य प्रमुखः च नवीन पटनायकः केन्द्रपाड़ा संसदीय क्षेत्रस्य अन्तर्गतं बरुआ इत्यत्र एकां जनसभां सम्बोधितवान्। प्रधानमंत्री भाजपा दलस्य वरिष्ठ नेता च नरेन्द्र मोदी लोकसभा विधानसभा निर्वाचनाभ्याम दलस्य प्रत्याशिभ्यः प्रचाराय अस्मिन् सप्ताहे ओडिशायाः यात्रां करिष्यति। श्री अमितशाहः श्वः ओडिशायां चांदबाली कोरेई नीमापारा इत्येतेषु स्थलेषु जनसभाः सम्बोधयिष्यति। कांग्रेस दलाध्यक्षः मल्लिकार्जुन खड़गे अपि अस्य मासस्य नवविंशति दिनांके ओडिशायां नैर्वाचनिक प्रचारं करिष्यति। कांग्रेस दलस्य वरिष्ठ नेता राहुल गांधी अस्य मासस्य त्रिंशत् दिनांके सिमुलिया इत्यत्र जनान् सम्बोधयिष्यति। अस्य वर्षस्य लोकसभा निर्वाचने जम्मू कश्मीर राज्ये 58.4% मतदानं सहैव 35 वर्षेषु सर्वाधिकं मतदानं संजातम् इति समंकितम्। केन्द्रशासित प्रदेशे अस्मिन् 5 संसदीय क्षेत्राणि समाविष्टानि सन्ति। येषु बारामूला, श्रीनगर, अनंतनाग, राजौरी, उधमपुर, जम्मू इत्यादीनि सन्ति। कश्मीरोपत्यकायां त्रिषु नैर्वाचनिक क्षेत्रेषु श्रीनगरे 38.49%, बारामूलायां 59.1%, अनंतनाग राजौर क्षेत्रयोः 54.44% मतदानं समनुष्ठितम्। अन्ययोः द्वयोः क्षेत्रयोः 54.6% मतदानं समनुष्ठितम्। मुख्य निर्वाचनायुक्तेन राजीव कुमारेण उपलब्धि पुरस्सरं शुभकामनाः प्रख्यापिताः। दिल्ल्याः मुख्यमन्त्रिणा आम आदमी पार्टी इति दलस्य राष्ट्रिय संयोजकेण अरविन्द केजरीवालेन स्वास्थ्य निरीक्षणाय स्वीय अल्पावधिक मुक्ति याचिकां सप्तदिनानि यावत् संवर्धयितुं सर्वोच्च न्यायालये याचिका प्रस्तुता। अत्रावधौ प्रवर्तन निदेशालयेन गतसप्ताहे दिल्ल्याः एकस्मिन् न्यायालये श्री केजरीवालस्य अल्पावधिक याचिकाया समाप्तेरनन्तरं न्यायिक निगडनं 14 दिनानि यावत् संवर्धयितुं याचिका प्रख्यापिता। प्रधानमंत्री भाजपेति दलस्य च वरिष्ठ नेता नरेन्द्र मोदी प्रावोचत् यत् आत्मनिर्भर लक्ष्यान्तर्गतं स्वदैशिक प्रतिभा संवर्धनं वित्तीयावसर क्षमतानां संवर्धनमिति उद्देश्यं वर्तते। एकस्मिन् वार्ताभिकरणे स्वीय साक्षात्कारे श्रीमोदी उक्तवान् यत् प्रत्यक्ष लाभार्थी हस्तान्तरणस्य माध्यमेन जनेभ्यः 38 लक्ष रूप्यकाणि आवंटितानि। प्रधानमंत्री सबलं प्रत्यपादयत् यत् प्रशासनस्य प्रत्येकस्मिन् निर्णय केन्द्रे राष्ट्रप्रधानमेव भवति। राष्ट्रपति पदासीना द्रौपदी मुर्मुः अद्य अवदत् यत् निःस्वार्थेण कल्याणस्य भावनया ओतप्रोतं सम्भूय कार्यनिष्पादनम् आन्तरिक आध्यात्मिकतायाः सामाजिक अभिव्यक्तिः अस्ति। अनया समुदीरितं यत् प्रजानाम कल्याणाय दानम् अतिविशिष्टम् आध्यात्मिक मूल्यमपि वर्तते। राष्ट्रपतिः मुर्मुः ब्रह्मा कुमारी द्वारा नवदिल्ल्याः भारत मण्डपस्थले आयोजिते एकस्मिन् समारोहे शुद्ध स्वस्थ समाजयोः कृते आध्यात्मिक शक्तीकरणस्य राष्ट्रियोद्घाटने एकां जनसभां सम्बोधयन्ती आसीत्। अपि च आध्यात्मिक शक्ति एव यथार्थ सशक्तीकरणं वर्तते। अपरत्र आध्यात्मिक मूल्यं सर्वेषां धर्माणां जनानां परस्परं संयोजयति। हॉकी इति क्रीडायां बेल्जियम देशस्य ऑन्टवर्प नगरे एफआईएच हॉकी प्रो लीग इत्यस्य यूरोपीय चरणस्य चतुर्थ क्रीडायां भारतम् अर्जेंटीना देशं पराजयत् इति वार्ताः।